इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपत्याभिभाषणे धन्यवाद प्रस्तावम् अधिकृत्य स्वकीयम् उत्तरं प्रयच्छति। निरन्तरं प्रवर्तमानस्य कोलाहलस्य मध्ये लोकसभायां राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्ताव ध्वनिमतद्वारा स्वीकृतः। भारत गल्फ कोऑपरेशन काउंसिल इत्येतयो मध्ये स्वतंत्र व्यापार संधि इत्यस्य कृते टर्म्स ऑफ रेफरेंस इत्यस्मिन् हस्ताक्षरं संजातम्। बंगाल सर्वकाराय अद्य न्यायालयेन प्रलम्बितस्य डीए इत्यस्य 25 प्रतिशन्मितस्य देयस्य परिष्कारस्य निर्देश दत्त अस्ति। केन्द्रीय गृह सहकारिता मंत्री अमित शाह अद्य आधिकारिक रूपेण नवदिल्ल्यां भारतस्य प्रथमं सहकार्याधारितस्य भारत टैक्सी इति उपक्रमस्य आरम्भं कृतवान्। अपि च महिला प्रीमियर लीग इति क्रिकेट क्रीडायां अद्य सायंकाले वडोदरा नगरे दिल्ली कैपिटल्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं इत्येतयो मध्ये क्रीडाद्वन्द्वः भविष्यति। अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपत्याभिभाषणे धन्यवाद प्रस्तावम् अधिकृत्य स्वकीयम् उत्तरं प्रयच्छति। राज्यसभायां चर्चायाः उत्तरं प्रयच्छन् श्रीमोदी अकथयत् यत् भारतेन विकसित भारतं प्रति द्रुतगत्या अग्रे गम्यते।
विकसित भारत की यात्रा में बीते वर्ष देश के तेज प्रगति से विकास के वर्ष रहे हैं। जीवन के हर क्षेत्र में समाज के हर वर्ग को उनके जीवन में परिवर्तन का एक कालखंड रहा है। एक सही दिशा में तेज गति से देश आगे बढ़ रहा है।
राष्ट्रपतिः द्रौपदी मुर्मुवर्या विगत मासस्य 28 दिनांके द्वयोः सदनयोः संयुक्तोपवेशनं सम्बोधितवती। इतः पूर्वं चर्चायां भागं भजन्ती बीजेपी दलस्य सांसदा माया नारोलिया प्रोक्तवती यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशः 47-2000 यावत् विकसित भारतस्य लक्ष्यं प्रति निरन्तरम् अग्रे वर्धते। सा कथयत् यत् अद्य देशे ग्रामीण क्षेत्रेषु 1,00,000 अधिकानि आयुष्मान आरोग्य मन्दिराणि निर्माय स्वास्थ्य सेवाः प्रदत्ताः सन्ति। एतत् सबलं कथयन्ती यत् कृषकाः सर्वकारस्य सर्वोच्च प्राथमिकताः सन्ति। श्रीमती नारोलिया वर्या अकथयत् यत् पीएम किसान सम्मान निधि योजना इत्यस्याः अन्तर्गतं कृषकेभ्यः 4,00,000 कोटि रूप्यकाणि वितरितानि। अद्यापि लोकसभायाः कार्याचरणे निरन्तरं व्यवधानम् अभवत् यतः भारत अमेरिका व्यापार सन्धिना सह विविध विषयेषु विपक्षस्य कोलाहलः सञ्जातः। निरन्तरं प्रवर्तमानस्य कोलाहलस्य मध्ये सभायां राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावः ध्वनिमतद्वारा स्वीकृतः। लोकसभायाः अध्यक्षः ओम बिरला वर्यः विपक्षी सांसदानां व्यवहारे क्षोभं प्रकटितवान्। सः अवदत् यत् श्वः विपक्षस्य सांसदानाम् अनुचित व्यवहारस्य कारणात् प्रधानमन्त्री नरेन्द्रमोदी धन्यवाद प्रस्तावस्य विषये उत्तरं दातुं सभां न आगच्छत्। अद्य निम्न सदने अपि त्रीणि स्थगनानि दृष्टानि। ततः परम् अन्ततः दिनपर्यन्तं यावत् स्थगनं सञ्जातम्। भारत गल्फ कोऑपरेशन काउंसिल इत्येतयोः मध्ये अद्य नवदिल्ल्यां स्वतंत्र व्यापार सन्धिः इत्यस्य कृते टर्म्स ऑफ रेफरेंस इत्यस्मिन् हस्ताक्षरं सञ्जातम्। समारोहस्य अध्यक्षतां कुर्वन् वाणिज्य उद्योग मंत्री पीयूष गोयल वर्यः अवदत् यत् भारतस्य गल्फ कोऑपरेशन काउंसिल इत्यस्य 6 देशैः सह मुक्त व्यापार सन्धिना अन्यः प्रमुखः व्यापार मार्गः उद्घाटितः भविष्यति। श्री गोयलवर्यः अवदत् यत् भारतं शीघ्रमेव अमेरिका देशेन सह स्वीकृतायाः व्यापार सन्धेः प्रथमभागस्य घोषणां करिष्यति। ममता बनर्जी इत्यस्य नेतृत्व भूताय बंगाल सर्वकाराय अद्य न्यायालयेन प्रलम्बितस्य डीए इत्यस्य परिष्काराय निर्देशः दत्तः अस्ति। प्रायः 20,00,000 संख्याकानां राज्य सर्वकारस्य कर्मचारिणां कृते डीए इति देयराशिः प्रदातव्या अस्ति। न्यायालयेन अराज्यम् अग्रिम मासस्य 6 दिनांकपर्यन्तं डीए इति देयराशेः न्यूनातिन्यूनं 25% राशिं दातुम् आदिष्टम्। पूर्वतनानि निर्देशानि पुनः दृढीकृतानि यानि वर्षाणि यावत् प्रलम्बितानि आसन्। डीए इत्यस्य विवादः 2000-तमाब्दात् प्रचलति यत्र कर्मचारिणः वैधानिकरूपेण योग्याः भूत्वा अपि लाभवञ्चिताः सन्ति इत्यारोपः कर्मचारिभिः प्रख्यापितः अस्ति। सर्वोच्च न्यायालयेन पूर्वं कर्मचारिणां पक्षे निर्णयः दत्तः आसीत् परन्तु राज्यसर्वकारः निर्देशानाम् अनुपालने असफलः अभवत्। अद्यतनस्य निर्णये सर्वोच्च न्यायालयेन पुनः दृढीकृतं यत् दशकाधिककालात् संचिता देयराशिः अवश्यमेव प्रदातव्या। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय गृह सहकारिता मन्त्री अमितशाहः अद्य आधिकारिकरूपेण नवदिल्ल्यां भारतस्य प्रथमं सहकार्याधारितस्य भारत टैक्सी इति उपक्रमस्य आरम्भं कृतवान्। भारत टैक्सी इति बहुराज्य सहकार समिति अधिनियमः इत्यस्य अन्तर्गतं पञ्जीकृतः भारतस्य प्रथमः सहकार नेतृत्वभूतः उपक्रमः अस्ति। एषः मञ्चः शून्य आयोगे वृद्धिमुक्त मूल्य निर्धारण प्रतिमाने च कार्यं करोति, यत्र चालकानां कृते लाभस्य प्रत्यक्ष वितरणं भवति, येन वैदेशिक निवेश आधारित समुच्चयक मञ्चानां स्वादेशिकः विकल्पः प्रस्तूयते। जनसमूहं सम्बोधयन् श्रीशाहवर्यः अवदत् यत् सर्वकारः टैक्सी सेवाक्षेत्रे न प्रविशति, अपि तु सहकारिक्षेत्राणि एव अस्मिन् प्रविशन्ति। भारतीय निर्वाचनायोगेन अद्य असम, केरल, पुदुचेरी, तमिलनाडु, पश्चिमबंगाल चेत्यादिषु राज्येषु आगामि विधानसभा निर्वाचनार्थं केन्द्रीय पर्यवेक्षकरूपेण सामान्य आरक्षक व्यय पर्यवेक्षकाणां कृते एका प्रबोधनसभा आयोजिता। आयोगः अवदत् यत् सामान्य पर्यवेक्षकैः, आरक्षक पर्यवेक्षकै, व्यय पर्यवेक्षकै च सह शततः अधिकाः अधिकारिणः वार्तालापाय आहूताः आसन्। पर्यवेक्षकान् सम्बोधयन् मुख्य निर्वाचनायुक्तः ज्ञानेशकुमारः अवदत् यत् पर्यवेक्षकाः स्वतन्त्रं, निष्पक्षं, पारदर्शकं च निर्वाचनं सुनिश्चितं कुर्युः। श्रीकुमारः अवदत् यत् निर्वाचनस्थले तेषामुपस्थित्या चतुर्विंशत्यधिक अष्टशतं निर्वाचनक्षेत्रेषु सम्पूर्णं निर्वाचनतन्त्रम् ऊर्जापूरितं भविष्यति। व्यापार वाणिज्य उद्योगमन्त्री पीयूष गोयलवर्यः अवदत् यत् भारत अमेरिका देशयोः मध्ये द्वैपाक्षिक व्यापार सन्धेः प्रथमः भागः प्रायः सज्जः अस्ति। सः नवदिल्ल्यां सञ्चारमाध्यमान् सम्बोधयन् आसीत्। श्रीगोयलवर्यः अवदत् यत् भारतं प्रायः चतुष्पञ्च दिवसेषु उभयदेशयोः मध्ये संयुक्त वक्तव्यम् अन्तिमं कृत्वा हस्ताक्षरं कर्तुम् अपेक्षते। सः अवदत् यत् संयुक्त वक्तव्यस्य हस्ताक्षरानन्तरं अमेरिका वर्तमानशुल्कम् 18% यावत् न्यूनं कर्तुं कार्यकार्यादेशं प्रख्यापयिष्यति। विदेशमन्त्री एस जयशंकरः उक्तवान् यत् ऐतिहासिकी भारत अमेरिका व्यापार सन्धिः अन्तिमस्तरे अस्ति, या शीघ्रमेव पूर्णा भविष्यति। सामाजिक संजाल माध्यमेन डॉ जयशंकरः अवदत् यत् व्यापार सन्धिना भारत अमेरिका द्वैपाक्षिक सम्बन्धेषु नूतनं चरणम् उद्घाटितमस्ति, यत्र सम्बन्धानां विशाल सम्भावनाः सन्ति। सद्यः समाप्तिङ्गते अमेरिकायाः प्रवासे डॉ जयशंकरः उक्तवान् यत् तस्य यात्रा सकारात्मकपूर्णा फलप्रदा चासीत्। सः अवदत् यत् भारतस्य महत्वपूर्णः खनिजक्षेत्रः सहयोगः अपि द्रुतगत्या प्रगतिं कुर्वन्नस्ति। सः इत्यपि अवदत् यत् आगामिदिनेषु सामरिकविषयेषु, रक्षायाम्, ऊर्जायाञ्च तयोः संलग्नता भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी फरवरी मासस्य 7-8 दिनांकयोः मलेशियायाः प्रधानमन्त्रिणः अनवर अब्राहिम इत्यस्य निमन्त्रणे क्वालालम्पुरं प्रति गमिष्यति। विदेशमन्त्रालयस्य सचिवः पी कुमारन वर्यस्य आगामियात्रायाः विषये वार्तालापं कुर्वन् अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः मलेशिया देशस्य एषा तृतीया यात्रा भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी मलेशिया देशस्य प्रधानमन्त्रिणा सह द्वैपाक्षिकीं चर्चां करिष्यति, तथा च भारत मलेशिया समग्र सामरिक सहभागित्वस्य अन्तर्गतं व्यापार, रक्षा, सुरक्षा, सेमीकंडक्टर्स, डिजिटल प्रौद्योगिकी, अक्षय ऊर्जा चेत्यादिषु प्राधान्यक्षेत्रेषु प्रगतेः समीक्षाम् अपि करिष्यति। महिला प्रीमियर लीग इति क्रिकेट क्रीडायाम् अद्य सायंकाले वडोदरानगरे दिल्ली कैपिटल्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं इत्येतयोः मध्ये क्रीडाद्वन्द्वः भविष्यति। क्रीडास्पर्धा सायं 7:30 वादने आरप्स्यते। इति वार्ताः।